انقذته بجنيه.
ಏನ ಅಕ್ಷರಸಮಾಮ್ನಾಯ ಅಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃತ್ಸ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ ವಾಕ್ಯಕಾರಂ ವರರುಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂಚ ಪ್ರಣತೋಸ್ಮಿ ಮುನಿತ್ರಯಂ. ಓಂ ನಮಃ ಪಾಣಿನಿ ಕಾತ್ಯಾಯನ ಪತಂಜಲಿಭ್ಯಃ ಶಬ್ದವಿದ್ಯಾ ಸಂಪ್ರದಾಯ ಕರ್ತೃಭ್ಯಃ ಪರಮ ಋಷಿಭ್ಯೋ ನಮೋ ಮಹದ್ಯೋ ನಮೋ ಗುರುಭ್ಯ.
ಧನ್ಯವಾದ. ಸರ್ವೇಭ್ಯೋ ನಮಃ. ಸರ್ವೇಷಾಂ ಸ್ವಾಗತ ಅಸ್ಮಿನ್ ವರ್ಗೆ, ತತ್ರ ಗೀತಾ ಪ್ರವೇಶ ವರ್ಗೆ. ಅಸ್ಮಾಕಂ ಪ್ರವರ್ತಮಾನಃ ವಿಷಯ ಅಸ್ತಿ ತತ್ರ ಪಾಣಿನಿನ ರಚಿತಾನಿ ಸೂತ್ರಾಣಿ ಕಥಂ ಪಠನೀಯಾನಿ ಇತಿ. ತತ್ರ ಸ್ವರೂಪ ಮಹೋದಯಸ್ಯ ಕರಪತ್ರಂ ಅಧಿಕೃತ್ಯ ವಯಂ ಎತತ್ ಸರ್ವಂ ಜಾನಂತಃ ಸ್ಮಃ. ತರ್ಹಿ ತತ್ರ ವಯಂ ಗತವರ್ಗೆ ಕಿಂ ಕಿಂ ಅವಗತವಂತಹ ಇತಿ ಕಿಂಚಿತ್ ತತ್ರ ಭೇದ ಭಗಿನಿ ಕಿಂಚಿತ್ ವದತು. ತತ್ರ ಕಾರ್ಯ ತ್ರಯಂ ಅಸ್ತಿ ಖಲು ನಮ್ಮ ತತ್ರ ಸಂಧಿ ಕಾರ್ಯೇ, ತತ್ರ ಕಾರ್ಯತ್ರಯಂ ವರ್ತತೆ, ಕಿಂ ಕಿಂ ಅಸ್ತಿ
ಸಂಧಿ ಕಾರ್ಯೇ ನಾಮ
ತತ್ರ ನ ಕೇವಲ ಯದಾ ಸಂಧಿ ಕಾರ್ಯಂ ಭವತಿ ತತ್ರ ಕಿಂ ಕಾರ್ಯತ್ರಯಂ ಅಸ್ತಿ ನಾಮ ಆದೇಶಃ ಇತಿ.
ಓ ಅಸ್ತು ಅಸ್ತು. ಆಮ್ ಆಮ್ ಆದೇಶಃ ಆಗಮಃ ಲೋಪಃ ಇತಿ ಕಾರ್ಯತ್ರಯಂ ಅಸ್ತಿ.
ಸಮೀಚೀನ. ತತ್ರ ಆದೇಶಃ ಇತ್ಯುಕ್ತೆ ಕಿಂ?
ಆದೇಶ ಇತ್ಯುಕ್ತೆ ಪೂರ್ವೇ ಯದ್ ವರ್ಣಃ ಅಸ್ತಿ ತಸ್ಯ ಸ್ಥಾನೆ ಅನ್ಯ ನವ ವರ್ಣಃ ಯಾ ನವೀವರ್ಣ ಕಿಂ ವದಾಮಿ ನವವರ್ಣ
ನೂತನವರ್ಣಃ
ತಸ್ಯ ಉದಯಂ ಭವತಿ. ಆಗಮ ಇತ್ಯುಕ್ತೆ ವರ್ಣಾತ್ ಪೂರ್ವಂ ಪರಂ ವಾ ಅನ್ಯ ವರ್ಣ ಯದಿ ಆಯಾತಿ ಚೇತ್ ತಸ್ಯ ನಾಮ ಆಗಮಃ. ವರ್ಣಾತ್ ಪೂರ್ವಂ ಅಪಿ ಚ ಪರಂ ಇತ್ಯುಕ್ತೆ ತತ್ ಕಿಂ ವದಾಮಿ
ಸರಳ ರೀತಿಯ ವದತು. ತತ್ರ ನೂತನ ವರ್ಣಃ ಆಗಚ್ಛತಿ ಚೇತ್ ಆಗಮಃ.
ಆಗಮಃ ಲೋಪಃ ಇತ್ಯುಕ್ತೆ ಅದರ್ಶನಂ ಇತಿ ಲೋಪಃ.
ಯತ್ ಯಹ ವರ್ಣಃ ಇದಾನಿಂ ಅಸ್ತಿ ಕಿಂತು ಸಂಧಿ ಕಾರ್ಯಂ ಅನಂತರಂ
ಭೂತ್ವಾ ತಸ್ಯ ಲೋಪಃ ಅದರ್ಶನಂ
ನ ದೃಶ್ಯತೆ. ಸಮೀಚೀನ. ಧನ್ಯವಾದ. ಸಮೀಚೀನ ಭಗಿನಿ. ಅಸ್ತು ಅಗ್ರೆ ತತ್ರ ಅಗ್ರೆ ಇದಾನಿಂ ತತ್ರ ಕೇವಲ ತತ್ರ ಪುನಃಸ್ಮರಣಾರ್ಥಂ ತತ್ರ ಕಿಂ ಕಿಂ ಅಭವತ್ ಇತಿ ಕೃತ್ವಾ ತರ್ಹಿ ತತ್ ಅಪಿ ಸರ್ವೇಷಾಂ ಪುರತಃ ತತ್ರ ಸ್ವರೂಪ ಮಹೋದಯಸ್ಯ ಕರಪತ್ರಂ ಅಸ್ತಿ ಖಲು ತತ್ರ ಅಸ್ಮಾಕಂ ಮೂಲಯಂತ್ರಾಣಿ ಇತಿ ಇತಿ ಲಿಂಕ್ ಮಧ್ಯೆ ತತ್ರ ದ್ವಿತೀಯ ವಿಷಯ ಅಸ್ತಿ ಪಾಣಿನಿ ಸೂತ್ರಾಣಿ ಕಥಂ ಪಠನೀಯಂ ಇತಿ. ಹಾ, ತತ್ ಕರಪತ್ರಂ ಪುರತಃ ಭವೇತ್. ಅಸ್ತು. ಇದಾನಿಂ ತತ್ರ ಪಾಣಿನಿ ಅಷ್ಟಾಧ್ಯಾಯಿ ತತ್ರ ಭಾಷಾ ಕಿಂಚಿತ್ ಭಿನ್ನ ಅಸ್ತಿ ನಾಮ ತತ್ರ ವಿಭಕ್ತಿ ವಿಭಕ್ತೇ ಅರ್ಥ ತತ್ರ ಯಥಾ ವ್ಯಾಕರಣೆ ಸಾಧಾರಣ ವಾಕ್ಯೇ ಭವತಿ ತಾದೃಶ ಅರ್ಥ ತತ್ರ ನ ಸಂತಿ. ಅತಃ ತತ್ರ ಷಷ್ಠಿ ವಿಭಕ್ತಿ ಇತಿ ಭವತಿ ಚೇತ್ ತತ್ರ ನರೇಶ್ ಮಹೋದಯ ತತ್ರ ಷಷ್ಠಿ ವಿಭಕ್ತಿ ವಿಭಕ್ತಿ ಅಂತ ಪದಂ ಅಸ್ತಿ ಚೇತ್ ತತ್ರ ಕಿಂ ಭವತಿ ತಸ್ಯ?
ಸಾಮಾನ್ಯತಯಾ ಷಷ್ಠಿ ವಿಭಕ್ತಿ ಸಂಬಂಧ ಅಸ್ತಿ. ಪರಂತು ಅತ್ರ ಷಷ್ಠಿ ವಿಭಕ್ತಿ ಸ್ಥಾನಿ ಅಸ್ತಿ.
ಹಾ, ನಾಮ ತಸ್ಯ ಸ್ಥಾನೆ ಇತಿ ಅರ್ಥ. ಹಾ, ಅಸ್ತು. ಸಮೀಚೀನ ಮಹೋದಯ. ತತ್ರ ಈಕೋ ಎಣಚಿ ಮಧ್ಯೆ ತತ್ರ ಷಷ್ಠಿ ವಿಭಕ್ತಿ ಅಂತ ಪದಂ ಕಿಂ ಅಸ್ತಿ?
ಇಕಃ.
ಈಕಃ ಇತಿ ಸಮೀಚೀನ. ಈಕಃ ಇತಿ ಷಷ್ಠಿ ವಿಭಕ್ತಿ ಅಂತ ಪದಂ ಅಸ್ತಿ. ಸಮೀಚೀನ. ಹಾ, ಅಸ್ತು ಅಗ್ರೆ ತತ್ರ. ಧನ್ಯವಾದ ಮಹೋದಯ. ಅಗ್ರೆ ತತ್ರ ಪಲ್ಲವಿ ಭಗಿನಿ, ಇದಾನಿಂ ತತ್ರ ಪ್ರಥಮ ವಿಭಕ್ತಿ ಪದಂ ಅಸ್ತಿ ಚೇತ್ ಸೂತ್ರೇ?
ಆಮ್, ಪ್ರಥಮ ವಿಭಕ್ತಿ ಅಸ್ತಿ ಚೇತ್ ಆದೇಶಃ ಆಗಮಃ ವಾ ನಾಮಕರಣಂ
ಇತಿ ಭವತಿ. ಸಮೀಚೀನಂ. ಹಾ, ತರ್ಹಿ ತತ್ರ ಈಕೋ ಎಣಚಿ ಮಧ್ಯೆ ತತ್ರ ಕಿಮಪಿ ಅಸ್ತಿ ವಾ ತತ್ರ ಪ್ರಥಮ ವಿಭಕ್ತಿ ಪದಂ?
ಆಮ್, ಯಣ್ ಇತಿ ಅಸ್ತಿ.
यण्ति अस्ति समीचीनं हा इदानीं तत्र यण्ति अस्ति प्रथमाविभक्ति अस्ति तत्र आदेशः भवति वा आगमः भवति वा नामकरणं भवति वा
अत्र आदेशः भवति
हा समीचीनं कथं जानीमः तत्र आदेशः इति एव
तत्र इकः इकवर्णस्य स्थाने यण् इति
आदेशः अपि तत्र सूत्रं इकः इति कीदृशपदमस्ति तत्र
षष्टि
अन्तपदम् अस्ति हा तदा वयं जानीमः तत्र आदेशः इति आगमः तत्र कदा भवति साधारणतया तत्र प्रथमविभक्तिपदं किन्तु तस्य अर्थः आगमः इति यदा भवति कदा भवति अपि आदेशः इति कदा भवति षष्टिविभक्त्यन्तपदं सूत्रे अस्ति चेत् आदेशः
आदेशः भवति
हा किन्तु सूत्रे षष्ट्यन्तपदं नास्ति चेत् प्रायशः आगमः नामकरणं वा इति समीचीनं हा इति अस्ति समीचीनं भगिनि अस्तु धन्यवादः अग्रे तत्र शोभा भगिनी इदानीं तत्र सप्तमी विभक्त्यन्तं पदम् अस्ति चेत् तत्र किं भवति
सप्तमी विभक्त्यन्तं पदम् अस्ति चेत् तत्र कार्यं पूर्वकार्यं भवति इत्युक्ते सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति तत्र पुनः इको एणचि इति स्वीकुर्मः चेत् तत्र इकः यण् अचि संहितायाम् इति अस्ति तत्र अचि इत्यस्य सप्तमी विभक्तिः इत्युक्ते तत्र अच् प्रत्याहारस्थवर्णः यत्र अस्ति तस्य वर्णस्य यत्र अस्ति तस्य सप्तमविभक्ति इति अर्थः भवति तत्र अपि च निर्दिष्टकार्यं कार्यात् परं स्थितः इति अर्थः इत्युक्ते यत्र सः वर्णः अस्ति तस्मात् पूर्वं कार्यं भवति
समीचीनं
इत्युक्ते तत्र यद्यपि अस्ति चेत् अथवा इति उक्ते एतादृशानि पदानि सन्ति चेत् तत्र इत्युक्ते इति भवति इति उक्ते इति इत्यस्य इकारः उक्ते इति तत्र अचि इति भवितुम् अर्हति अतः तत्र इति इत्यस्य इकारस्य स्थाने कार्यं भवति उक्ते इति परम् अस्ति इति इत्यस्य इकारः पूर्वम् अस्ति पूर्वकार्यं भवति तत्र
पूर्वकार्यं भवति समीचीनं धन्यवादः भगिनि अस्तु इदानीं तत्र अग्रे तत्र एतावत् तत्र निवेदिता भगिनि इदानीं तत्र नमस्कारः निवेदिता भगिनि अस्ति वा नास्ति अस्तु इदानीं तर्हि तत्र उषा भगिनी इदानीं तत्र पञ्चमी विभक्त्यन्तपदम् अस्ति चेत्
पञ्चमी विभक्त्यन्तं पदम् अस्ति चेत् कार्यं सूचनार्थं कार्यं तत् परः अस्ति इति सूचनार्थं पञ्चमी विभक्ति पाणिनिमहर्षेः
तत्र परकार्यं नाम कार्यं तस्मात् परं
परः
परमस्ति इति समीचीनं तत्र प्रायशः तत्र पञ्चमीभक्ति तत्र ऋषाभ्याम् इति अस्तु
नृषाभ्यां
समानपदे इति एव तत्र उदाहरणं दत्तमस्ति अस्तु समीचीनं भगिनि अस्तु धन्यवादः इदानीम् उमा मीनाक्षी भगिनि इदानीं तत्र तृतीया विभक्त्यन्तं पदम् अस्ति चेत् सूत्रे किं भवति उमा मीनाक्षी भगिनि
सारि अन्म्यूट् न कृतम्
अस्तु अस्तु अस्तु
ओके तृतीया विभक्तिः अस्ति चेत् पूर्वं वा परं द्वयमपि चलति
हा किन्तु तत्र अर्थः कः तस्य पात्रं किं कार्ये तस्य पात्रं किं तृतीया विभक्ति विभक्त्यन्तपदस्य
न अवगतं भवतः प्रश्न एव न अवगतं
नाम तृतीया विभक्त्यन्तपदं सूत्रे अस्ति चेत् तत्र किं भवति अस्तु तत्र
भगिनी तत्र स्वीकृत्य वक्तुं शक्नोति
वा? तत्र यत् उदाहरणं दत्तमस्ति तदेव स्वीकरोतु.
तत्र अथवा ष्टुत्वसन्धि विषये
तदेव स्वीकरोतु भगिनि. समीचीनं.
तदा सकार तकार आगच्छति तस्य पूर्वं वा परं शकार च वर्गीयवर्णः अस्ति चेत् परिवर्तनं भवति अस्य सकारस्य तवर्गीयवर्णस्य शकारे च वर्गीयवर्णे एवं भवति.
समीचीनं भगिनि. अतः तत्र प्रायश एषः एव अन्तिमविषयः आसीत् अस्माभिः दृष्टः तत्र गतवर्गे. तर्हि तत्र एकवारं तत्र एतं भागं पठति वा तत्र ई इति तृतीया विभक्तिः संयोजनम् इति ततः आरभ्य
पठनीयम्.
मम समीपे PDF नास्ति, कोऽपि प्रेषितुं शक्नोति वा?
केवलं तत्र लिङ्क् अस्ति भगिनि, तावदेव. मेल् मध्ये लिङ्क् अस्ति खलु भगिनि, पल्लवी भगिनि, निवेदिता भगिनि.
मुझे वो मेल ही नहीं मिल रहा है जिसमें वो भेजे गए हैं. मैं वही सोच रही थी.
साइट मालूम है? हाँ, ये जो वर्ल्ड संस्कृत जो हम खोलते हैं वहाँ पे जाएगी ना तो खोल सकता है. समझ में आया? समझ में आया?
कहाँ जाएंगे?
ये अपना क्या वर्ल्ड संस्कृत विश्व संस्कृत
महोदय
अहं लिङ्क् प्रेषितवती. चाट् मध्ये
धन्यवादः भगिनि.
ओके
अस्तु मीनाक्षी भगिनि अग्रे पठतु तर्हि.
अहं पठिष्यामि.
पठतु पठतु. तृतीया विभक्तिः इति संयोजनं तथा
एकनिमिषं गतं. निवेदितायाः साहाय्यार्थम् अहम् अन्यत्र गतवती. ओके, तृतीया विभक्तिसंयोजनं. सूत्रे यस्य वर्णस्य तृतीया विभक्तिः भवति सः निर्दिष्टेन वर्णेन सह संयुक्तः इत्यर्थः. तत्र निर्दिष्टं कार्यं तस्मात् पूर्वमपि परमपि अर्हति, परन्तु अयं तृतीया विभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्.
उदाहरणमपि पठतु भगिनि.
उदाहरणं स्तोः श्चुनाश्चुः 8440 सकारस्य तवर्गीयस्य च स्थाने शकारस्य च वर्गस्य च आदेशः भवति शकारस्य च वर्गस्य च योजनेन. स्तोः षष्ट्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं. स्तोः श्चुनाश्चुः संहितायां पूर्वकार्यम् अन्यत् च अन्यच्च परकार्यं यज् अधिकं नः यज् ञः ञ अह यज्ञः यज्ञः. अतः निर्दिष्टं कार्यं निमित्तात् पूर्वमपि परमपि अर्हति, परन्तु अयं तृतीया विभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्.
तर्हि तत्र आदेशः, तत्र आदेशः इति अस्ति चवर्गस्य आदेशः शकारस्य चवर्गस्य च योजनेन.
एकं तु अस्ति चवर्गशकारः स्थानं यदस्ति तत्र तु सकारः तवर्गीयवर्णः भवितव्यम्. तत्पूर्वं वा परं सवर्गीयवर्णः वा शकारः अस्ति चेत् कार्यं भविष्यति. कार्यं भविष्यति इत्युक्ते परिवर्तनं भविष्यति.
अपि तत्र तकारः चकाररूपेण परिवर्तितं भवति. तत्र नकारः ये अस्ति तद् तत्र पवर्गीय नकारः तत्र चवर्गीय नकारः भवति. अस्तु, द्वितीय उदाहरणे. अस्तु, तर्हि तत्र तृतीया इति तत्र श्चुना इति खलु, श्चुना इति तृतीय विभक्त्यन्तम्.
यदा षष्टि अस्ति तत्तु स्थानं निर्दिशति, सप्तमी अस्ति तु परनिमित्तं, पञ्चमी अस्ति तु पूर्वनिमित्तं, तृतीया अस्ति तु निमित्तं तु पूर्वं वा परं भवितुम् अर्हति.
हा इति अस्ति, तत् कुत्रापि भवेत् किन्तु तस्य आदेशः
परं, परन्तु कार्यं तु भवितव्यमेव.
हा कार्यं भवितव्यम्, अपि अस्य संयोजनं भवति, नाम हा संयुक्तः नु एषः वर्णः संयुक्तः भवति. हा अस्तु, समीचीनं. अतः तत्र धन्यवादः. अतः इदानीं तत्र वयं यदि सूत्राणां पठनं कर्तुम् इच्छामः तस्मात् प्राक् किं भवेत्, तत्र विभक्तेः अर्थाः स्पष्टतया ज्ञातव्याः. अतः तत्र इदानीं षष्टिविभक्ति तस्य पात्रं किं, प्रथमाविभक्ति तस्य पात्रं किं, सप्तमीविभक्ति तस्य पात्रं किं, पञ्चमी तृतीया विभक्ति अपि तयोः पात्रं किम् इति ज्ञातवन्तः. अतः इदानीम् अग्रे तत्र एतावत् किम् उक्तं, यदि किमपि सूत्रं पठामः तत्र अनेकानि पदानि भवेयुः, किन्तु तत्र विभक्तिं दृष्ट्वा वयं जानीमः, अस्तु एतस्य पात्रम् एतदस्ति इति सूत्रार्थः इति जानीमः. इदानीम् अग्रे पठामः व्याख्यानस्य आकृतिः, नाम तत्र पाणिनेः तत्र अष्टाध्यायी पठनसमये तत्र व्याख्यानम् एतत् सर्वं भवति, तत् कीदृशं भवति इति पश्यामः. अतः तत्र अस्माकं मूल उदाहरणं तत्र अस्मिन् करपत्रे यण् सन्धि इति एव स्वीकृतम् इति मन्ये. अस्तु, इदानीं तर्हि तत्र हा निवेदितभगिनी प्राप्तवती वा? अस्तु, तर्हि अग्रे हा वेदा भगिनी, हा सुजाता भगिनी अग्रे पठति वा?
महोदय, व्याख्यानस्य आकृतिः. यदा सूत्रस्य विवरणं दीयते अस्तं विश्वसंस्कृतगवाक्षः इति जलस्थाने, तदा व्याख्याने
कश्चन
क्रमः
कश्चन
क्षम्यतां महोदय, कश्चन क्रमः वर्तते, क्रमः भवति.
भगिनी तत्र सम्यक्तया न श्रूयते, केवलं मम कृते वा अथवा सर्वेषां कृते एतादृशी अस्ति वा?
भग्नः जातः.
इदानीं कथमस्ति महोदय?
इदानीं सम्यक्तया श्रूयते भगिनि. अस्तु,
प्रथमबिन्दु अस्ति सूत्रस्य अर्थः. एकस्मिन् वाक्ये सूत्रस्य अर्थः कः इति उक्तम्. द्वितीयबिन्दु अस्ति समासानां विग्रहवाक्यं. बहुषु सूत्रेषु समासाः सन्ति चेत् तेषां विवरणं दीयते. तृतीयबिन्दु अस्ति सूत्रे पदानां विभक्तयः. सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते. सूत्रे अनुवृत्तिः, आधिक्येन कानिचन
अस्तु अस्तु इदानीं तत्र एतावत् तत्र प्रथमबिन्दुत्रयं हा किञ्चित् वदतु तत्र किं किम् अस्ति तत्र अग्रे यदि तत्र वयं पठामः अस्मिन् जालस्थाने यदि वयं पठामः व्याख्यानं तत्र क्रमः कः
सूत्रस्य अर्धः किम् इति उक्तमस्ति सूत्रे अर्धः किम् इति उक्तमस्ति
सूत्रस्य अर्थः सूत्रस्य कार्यं नाम सूत्रं किं करोति सूत्रेण किं भवति इति तत्र वाक्ये अथवा वाक्यद्वये सूत्रस्य अर्थः कः इति उक्तमस्ति अस्तु तदनन्तरं किं दत्तं भवति
समासानां विग्रहवाक्यं समासः अस्ति चेत् विग्रहवाक्यं विग्रहवाक्यं किम् अस्ति
तत्र एतावत् वयं समासः कः इति न पठितवन्तः किन्तु तत्र यत्र समासः भवति तत्र विग्रहवाक्यं भवेत् यदि विग्रहवाक्यं यदि न दत्तं तत्र अर्थक्लेशः भवति नाम तत्र प्रसिद्ध उदाहरणं तत्र अग्रे गत्वा द्रक्ष्यामः तत्र रामेश्वरम् इति तत्र यदस्ति तत्र अर्थभेदः भवति अतः तत्र द्वन्द्वसमासः भवति तत्पुरुषसमासः भवति कर्मधारीयसमासः भवति बहुव्रीहिसमासः भवति इति कृत्वा तत्र अर्थभेदः भवति अतः विग्रहवाक्यं धातव्यं भवति नो चेत् अर्थः न अर्थः कः इति न अवगच्छामः अवगच्छामः अपि तत्र स्वरूपमहोदयः तत्र बहुवारं उक्तवान् नाम यत्र सन्धिकार्यं भवति तत्र सन्धिकार्यं तत्र ध्वनिविज्ञानम् इति सः वदति नाम तत्र केवलं ध्वनिमनुसृत्य एव नाम वर्णानां तत्र एषः कः वर्णः एषः कः वर्णः इत्येव दृष्ट्वा तत्र मेलनं कथं भवति इति तत्र सूत्राणि वदन्ति तत्र अर्थस्य महत्त्वं नास्ति सन्धिकार्येषु अर्थस्य महत्त्वं नास्ति ध्वनेः महत्त्वम् अस्ति नाम कः वर्णः कः अन्तिमवर्णः आदिमवर्णः इति एतत् सर्वं दृष्ट्वा वर्णः कुत्र अस्ति पवर्गीयवर्णः वा स्वरः वा एतत् सर्वं दृष्ट्वा तत्र कार्यं कार्यनिर्माणे तत्र तस्य पात्रं किम् इति एतत् सर्वं भवति किन्तु अर्थस्य महत्त्वं नास्ति समासे तत्र वर्णस्य महत्त्वं नास्ति अर्थमहत्त्वम् अस्ति तत्र अतः अर्थः यत्र भवति तत्र समासः यत्र भवति तत्र अर्थः इति तत्र इति प्रधानं यत्र सन्धिः भवति तत्र ध्वनिः इति प्रधानम् अस्तु अग्रे
सूत्रे पदानां विभक्तयः अहं ज्ञातवन्तः प्रथमाविभक्ति चेत् किं भवति
हा अतः तत्र सूत्रे ये यानि यानि पदानि सन्ति तेषां विभक्तयः काः इति ध्यानमश्चेत् अवगमनं सुलभं भवति समीचीनं भगिनि हा तावत्पर्यन्तं धन्यवादः
धन्यवादः
धन्यवादः भगिनि अस्तु हा अस्तु अग्रे निवेदिता भगिनि इदानीं सूत्रे अनुवृत्तिः इति
सूत्रे अनुवृत्तिः आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूर्णार्थम् आधिक्येन कानिचन पदानि
भगिनी तत्र किञ्चित् अग्रे अपि पठतु तत्र प्रायशः
तदर्थं येषां सूत्राणां समानप्रकारक कार्यं भवति तानि सूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहितानि भवन्ति अनेन एकस्मिन् स्थले इत्युक्ते एकस्मिन् प्रकरणे प्रथमे सूत्रे किञ्चित् किञ्चन पदम् अस्ति तत् पदं पुनः द्वितीये सूत्रे न दीयते अस्माभिः मनसि तत् पदम् आनेतव्यं यथा रामः वदति अहम् आपणं गच्छामि श्यामः वदति अहमपि वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहमपि आपणं गच्छामि इति यद्यपि श्यामः केवलम् अहमपि इत्यवदत् तथापि वयं तस्य अर्थं पूरयामः मनसि तादृशम् अर्थपूर्णं पाणिनिः इच्छति सूत्रविषये यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि तानि अस्माभिः आनेतव्यानि तादृशपदस्य अनुवृत्तिः अस्ति इत्युच्यते व्याख्यानस्य अस्मिन् भागे इमानि पदानि दीयन्ते
इति तावत्पर्यन्तं किञ्चित् वदतु भगिनि
येषां सूत्राणां समानप्रकारकः कार्यं करोति अष्टाध्यायी मध्ये तानि सूत्राणि एकस्मिन् स्थले एव अस्ति सन्ति लभ्यता तस्य सङ्ग्रहः अस्ति एकस्मिन् स्थाने एव
एकस्मिन् स्थले एकस्मिन् प्रकरणे दत्तानि भवन्ति समासस्य विषये यानि सूत्राणि सन्ति ते सर्वाणि सङ्गृहीतानि भवन्ति एकस्मिन् प्रकरणे अथवा प्रकरणद्वये अतः तत्र समीपं भवन्ति अतः अपि तत्र क्रमः तत्र प्रथमसूत्रं तदनन्तरमेव द्वितीयसूत्रम् इति क्रमस्य सूत्रस्य सङ्ख्यायाः महत्त्वमपि भवति अतः तत्र किमर्थं तत्र पाणिनिः सूत्रस्य लघुत्वम् इच्छति अतः एतेन किं भवति सूत्रस्य सङ्ग्रहणं कृत्वा सः लघुसूत्रं वदति किन्तु तेन वयं किं तत्र अस्माकं कार्यं किं भवति नाम तत्र प्रथमसूत्रे किमपि पदं भवति द्वितीयसूत्रे तत् पदं न दत्तं भवति तदा वयं किं कुर्मः
तदा केवलं अहं तस्य अर्थः मनसि एव
नाम यथा तत्र रामः श्यामः तस्य उदाहरणम् एकवारं स्वशब्दैः वदतु
यदा रामः वदति अहम् आपणं गच्छामि श्यामः अपि वदति अहमपि किन्तु श्यामः अपि कथितुमिच्छति सः अपि आपणं गच्छति किन्तु तत् पदं
किन्तु सः केवलम् अहमपि इति उक्तवान् खलु
किन्तु तस्य बोधः भवति
बोधः नाम वयं कुर्मः तत्र स्वयं कुर्मः नाम वयमेव तत्र अस्तु तस्य आशयः सः किं वक्तुम् इष्टवान् अहमपि आपणं गच्छामि इति वक्तुम् इष्टवान् खलु अतः तत्र अहमपि अनन्तरम् आपणं गच्छामि इति यद् अनुक्तमासीत् वयं तत् स्थापयामः तदा अर्थः स्पष्टः भवति तथैव अत्रापि सूत्रविषये किं पाणिनिः किम् इच्छति अत्रापि अर्थपूरणं यः पठति सः करोति इति पाणिनिमहर्षि इच्छति नाम अतः सः यथा श्यामः वदति तथैव पाणिनिः महर्षिः वदति अतः अस्माकं कार्यमस्ति यत् सः उक्तवान् तस्य स्पष्टीकरणार्थं तत्र पूर्वस्थितं पूर्वस्मिन् सूत्रे स्थितानि पदानि आनयनं कृत्वा तत्र स्थापन यदि स्थापयामः अर्थः स्पष्टः भवति यथा तत्र वयं यथा भवती तत्र गतवर्गे पठितवती खलु तत्र ईको यणचि इति तत्र आदौ तत्र ईको यणचि इति केवलं सूत्रं किन्तु अनुवृत्तिसहितसूत्रं किम् अस्ति उपरि अस्ति नाम इकः इको यणचि संहितायाम् इति
इको यणचि संहितायाम्
संहितायाम् इति आसीत् हा अतः तत्र संहितायाम् इति तत्र पूर्वमासीत् तद् तस्य स्थापनं वयमेव कुर्मः पाणिनिमहर्षि तत् पुनः न वदति अतः तत्र
सन्धिमध्ये संहिता आवश्यकम् अस्ति खलु सन्धिमध्ये
अतः नाम तत्र किन्तु केवलम् इको यणचि अस्ति चेत् एतत् सन्धिकार्यम् इति न उक्तं खलु सूत्रे अतः सन्धिकार्यम् अस्ति इति मनसि निधाय वयं संहितायां वयमेव स्थापयामः पाणिनिमहर्षि केवलम् इकः इको यणचि इति एव वदति अतः संहितायाम् इति वयं स्थापयामः अर्थस्पर्शन अर्थः स्पष्टः भवेत् इति अतः एतादृशं कार्यमस्ति अनुवृत्तिः संहितायाम् इति यत् स्थापयामः तद्भवति अनुवृत्तिः अतः अनुवृत्तिः सहितसूत्रम् इति वदामः नाम अनुवृत्तिसहितसूत्रम् इति अस्तु अतः तत्र भवती अवगच्छति खलु भगिनि तत्र यत् उक्तम् अस्ति
आमाम्
हा नाम पाणिनिमहर्षि यथाश्यामः वदति तावदेव वदति यदि तत्र अहम् आपणं गच्छामि इति यदि रामः उक्तवान् तदनन्तरं श्यामः यथा वदति केवलम् अहमपि पाणिनिमहर्षि चिन्तयति संहितामिति अहं पूर्वम् उक्तवान् अतः इदानीं केवलम् इको एनर्जि इति यदि वदामः पर्याप्तम् यः पठति सः जानाति अस्तु अस्मिन् प्रकरणे संहितायाम् इति पूर्वमेव उक्तम् अतः अत्रापि संहितायाम् इति स्थापयामि अतः इको एनचि संहितायाम् इति पूर्णसूत्रं भवति इति अवगच्छति इति पाणिनेः आशयः अस्तु अग्रे दिनेसरामः तर्हि अग्रे तत्र वेद भगिनी अग्रे धन्यवादः भगिनि
सूत्रे अधिकारः केषां तदेव वा केषाञ्चित् विशिष्टसूत्राणां पूर्णरीत्या अनुवृत्तिः भवति बहुषु अग्रिमसूत्रेषु अधिकारसूत्रे यावन्ती पदानि सन्ति तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूर्णार्थम् उपविशन्ति अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम् अपेक्षते चेत् अत्र दीयते केषाञ्चित् विशिष्टसूत्राणां पूर्णरीत्या अनुवृत्तिः भवति बहुषु अग्रिमसूत्रेषु अस्तु अनुवृत्तिः भवति अग्रिमसूत्रेषु भवति यत्र अधिकारसूत्र अस्ति अधिकारसूत्रे किं वदामि अधिकारसूत्रमित्युक्ते एक अध्यायः इति वक्तुं शक्नुमः वा इत्युक्ते तत्र के ये सूत्राणि तस्य अधिकारस्य
तत्र अध्यायः इति मास्तु यतोहि अत्र केवलम् अनुवृत्तिः तत्र तत्र अधिकारः इत्युक्ते केवलम् अन्यस्मिन् एकस्मिन् एव तत्र अग्रिमे सूत्रे एव तस्य अनुवृत्तिः इति न बहुषु सूत्रेषु
अग्रिमसूत्रेषु तस्य
नाम केवलं तत्र यथा तत्र रामः यदि वदति तत्र अहम् आपणं गच्छामि श्यामः वदति अहमपि अन्यः अपि वदति अहमपि अहमपि इति यदि तत्र जन शतं वदन्ति अहमपि तत्र वयं जानीमः सर्वे किं वक्तुमिच्छन्ति सर्वे वक्तुमिच्छन्ति अहमपि गच्छामि इति अथ तत्र केवलं यदि केवलम् एकम् अनन्तरं तत्र एव भवति चेत् तस्य अर्थपूरणार्थं तस्य अहमपि आपणं गच्छामि इति तत् स्थापयामश्चेत् तद् अनुवृत्तिः इति वदामः किन्तु यदि तत्र बहुवारम् अनुवृत्तिं कुर्मः अथवा अनुवृत्तेः आवश्यकता भवति तत्र अतः तत्र अनुवृत्तिः बहुषु सूत्रेषु यदा भवति तद् तादृशी परिस्थितिः कदा भवति यत्र
अधिकारसूत्रम्
अस्ति अतः केवलम् अधिकारसूत्रं यत्र अस्ति केवलम् अधिकारसूत्रस्य अनन्तरं यत् यत् सूत्रमस्ति केवलं तत्र अनुवृत्तिः भवति इति न, तस्य अनन्तरं बहुत्र तस्य अनुवृत्तिः भवति.
उदाहरणतया इकोयणचि तत्र संहितायां
अपि तत्र उदा अधिकारसूत्रे यावन्ति पदानि इति तद् वाक्यमपि एकवारं पठतु.
अधिकारसूत्रे यावन्ति पदानि सन्ति तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूर्णार्थम् उपविशन्ति. ओके, अधिकारसूत्रे यावन्ति पदानि सन्ति तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूर्णार्थम् उपविशन्ति. यत्र अनुवृत्ति अस्ति तत्र केवलं एकपदम् अपि च बहूनि पदानि अपि अनुवृत्तिरूपेण आयास्यति. परन्तु अधिकारे किमस्ति, अधिकारसूत्रे ये ये पदानि सन्ति तानि सर्वाणि मिलित्वा अर्थपूर्णार्थम् अनुवृत्तिरूपेण आयास्यति इति वा?
इति सत्यं भगिनि. अतः तत्र सर्वाणि पदानि आगच्छन्ति, उपविशन्ति तत्र अत्र यत्र यत्र तस्य अनुवृत्तिकार्यमस्ति तत्र पदानि उपविशन्ति. समीचीनम्.
अनुवृत्तिसहितसूत्रं सूत्रं वाक्यरूपेण दीयते. याः अनुवृत्तयः सन्ति अपि च यानि अधिकारसूत्राणि सन्ति तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते. अनुवृत्तिसहितसूत्रं किम् अस्ति इत्युक्ते सूत्रं वाक्यरूपेण दीयते इत्युक्ते तत्र ये ये अनुवृत्तिः अनुवृत्तयः याः अनुवृत्तयः सन्ति ते सर्वे अपि च यानि अधिकारसूत्राणि सन्ति ते सर्वे तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते. किमर्थं वदामि, इको यणचि संहितायां तदेक इकः यणः अचि संहितायाम् इति वाक्यम् इति भवति. तत् वाक्यं पूर्णतया न तत् वाक्यतया वाक्यतः अर्थं ज्ञातुं शक्नुमः, पूर्णतया अर्थं ज्ञातुं शक्नुमः
इति अस्ति. समीचीनं भगिनि. अतः तत्र अनुवृत्तिसहितसूत्रम् इति सूत्रस्य अपेक्षया बृहत् भवितुं भवितुम् अर्हति.
यतोहि
अनुवृत्तिसहितसूत्रेषु सूत्रे वयं तत्र अनुवृत्तयः स्थापयामः, अपि तत्र
अधिकारसूत्रेषु
यानि पदानि स्थितानि भवन्ति तानि अपि सर्वं वयं स्थापयामः. अतः तत्र अनुवृत्तिसहितसूत्रम्, अतः तत्र यत्र सूत्रमस्ति तत्र एषः प्रश्नः उदेति, नाम अत्र कस्य सूत्रस्य अनुवृत्तिः अस्ति, अपि कस्य सूत्रस्य अधिकारः अत्र अस्य सूत्रस्य उपरि अधिकारः वर्तते इति ज्ञात्वा एव एतत् सर्वं तस्य प्रश्नस्य उत्तरं यदि जानीमः तदा एव तत्र अनुवृत्तिसहितसूत्रं
ज्ञास्यामः
किम् इति ज्ञास्यामः. अतः तत्र अनुवृत्तिसहितसूत्रं दत्तमस्ति चेत् तत्र यदि पश्यामः तदा वयं जानीमः, अस्तु अस्तु तस्य अनुवृत्तिः अस्ति, एतस्य अनुवृत्तिः अस्ति, ओ एतत् अधिकारसूत्रमपि अत्र तस् कार्यं करोति इति सर्वं जानीमः. अस्तु, तदा एव तत्र सम्यक् रीत्या वयं सूत्रस्य कार्यं कदा भवति, कस्मिन् सन्दर्भे भवति, अपि कार्यं साक्षात् किं भवति इति जानीमः. अस्तु, समीचीनं भगिनि, धन्यवादः.
धन्यवादः.
अस्तु, अस्तु, इदानीम् अग्रे तत्र उषा भगिनी अग्रे पठति वा?
आं महोदय. उदाहरणं यण् सन्धिः, यदि योगः अपि, यदि इत्यस्य इकारस्य स्थाने यकार आदेशः भवति यद्यपि इति भवति. इको यणचि, इकः स्थाने यण् आदेशः भवति अचि परे संहितायां विषये. इकः षष्ट्यन्तम्, यण् प्रथमान्तम् अचि सप्तमीयन्तम् त्रिपदमिदम् सूत्रम् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम् इति अस्ति. अग्रे पठित्वा वदामि महोदय.
इदानीं भगिनी तर्हि तत्र किं कृतं व्याख्यानं दत्तं,
व्याख्यानस्य आकृतेः कृतं.
हा तत्र व्याख्यानं कृतमस्ति, इदानीम् आकृतिः कीदृशी इति ध्याने इति अग्रे उच्यते. हा तर्हि तदपि पठतु भगिनि.
उपरितने व्याख्याने क्रमेण सूत्रार्थः अस्ति. समासस्य अभावात् समासविवरणं नास्ति. पदानां विभक्तयः दत्ताः. सूत्रे अनुवृत्तिः नास्ति, अधिकारः अस्ति. अनुवृत्तिसहितसूत्रम् अन्ते वर्तते. अत्र अनुवृत्तिः नास्ति परन्तु अधिकारः अस्ति, अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः. उपरितने गिव् दत्तम् अस्ति व्याख्यानस्य आकृतिः. आकृतेः कृते सूत्रस्य अर्थः, समासानां विग्रहः, सूत्रपदानां विभक्तयः इति बिन्दोः दत्तम्.
तर्हि तत्र इको यणचि इति साक्षात् सूत्रं,
साक्षात् प्रथमवाक्यं, प्रथमतया सूत्रम्, अनन्तरं सूत्रस्य अर्थः एकवाक्ये अथवा द्विवाक्ये दत्तम् अस्ति. इकः स्थाने यण् आदेशः भवति, अचि परे संहितायां विषये इति सूत्र अर्थः भवति. इको यणचि इति अनन्तरं पदस्य विभक्तयः दत्तम्. इकः षष्ट्यन्तम्, इकः षष्ट्यन्तम् इति वयं जानीमः तस्य स्थाने इति. यण् प्रथमान्तं, प्रथमान्तम् इत्यस्य कृते इकः स्थाने यत् वर्णः भवति इति कृते यण् इति अस्ति. अचि सप्तमीयन्तं, सप्तमीयन्तम् इति सूचनार्थं, सूचनेन कार्यं यण् इति कार्यम् अचि पूर्वम् अस्ति इति दत्तम्. त्रिपदमिदं सूत्रम् इति इकः यण् अचि इति
त्रिपदमिदं.
संहितायाम् इत्यस्य अधिकारः अधिकारसूत्रम् अस्ति. संहितायाम् इत्यस्य विषयस्य कृते यानि सूत्राणि सन्ति तस्य अधः अस्ति. संहितायाम् इति अधिकारसूत्रस्य अधः संहितायां विषये यानि सूत्राणि महर्षिपाणिनेः इष्टं भवति सः दत्तं, सः सूत्रं
प्रथमतया तर्हि संहितायां सूत्रं, तदनन्तरमेव तत्र एतत् सूत्रम् आगच्छति खलु. तर्हि सङ्ख्यां दृष्ट्वा वयं जानीमः तत्र संहितायाम् इति प्रथमतया आगच्छति, तदनन्तरम् एतत् सूत्रं इति तस्य अनन्तरम् अस्ति. अपि तत्र अधिकारसूत्रमस्ति न तु अनुवृत्तिः, अत्र अनुवृत्तिः नास्ति. संहितायां नाम तत्र संहितायाम् इति सूत्रस्य अनुवृत्तिः बहुषु सूत्रेषु भवति, केवलम् एकस्मिन् सूत्रे इति नास्ति, बहुषु सूत्रेषु भवितुम् अर्हति भवति. अपि अपि अत्र तत्र समासस्य विवरणं दत्तं वा अत्र?
नो न महोदय, अत्र इको एनचि इत्यस्य कृते समासः
नास्ति, तत्र समासपदं नास्ति, अतः तत्र तस्य विवरणं न दत्तं,
न दत्तम्.
अतः तत्र इदानीं तत्र अनुवृत्तिसहित्रसूत्रे तत्र
इकः यण् अचि संहितायाम् इति दत्तम्. अनुवृत्तिसहित्रसूत्रे पूर्वतनसूत्रस्य कृते यत् पदम् आवश्यकं भवति तद् गृहीतं भवति. अत्र संहितायाम् इति अधिकारस्य विषयः एव इत्यस्य उक्तं भवति चेत्
तदेव आगच्छति
विषयस्य विषयं पूर्णं भवति. इकः यण् अचि संहितायां विषये इति.
तर्हि तत्र यद्यपि वयं वदामः अनुवृत्तिसहितसूत्रम्, अस्मिन् सूत्रे अनुवृत्तिसहितसूत्रे अनुवृत्तिः नास्ति,
अनुवृत्तिः
अधिकारः अस्ति. अधिकारः इत्युक्ते अनुवृत्तिः, किन्तु अधिकारः इत्युक्ते बहुत्र तस्य अनुवृत्तिः भवति
भवति
केवलं तत्र अनुवृत्तिः विरुद्धम् इति न चिन्तनीयम् अधिकारः इत्युक्ते अनुवृत्तिरूपेण बहुषु सूत्रेषु आगच्छति इति कृत्वा अधिकारः अतः
संहितायाम् इति अधिकारसूत्रम् आरम्भं सूचयति संहितायाम् इति
समीचीनं तत्र यत्र सन्धिविषयः आरभ्यते तत्र पाणिनिमहर्षिणा तत्र प्रथमसूत्रमेव अस्ति संहितायाम् अतः तस्य अधिकारः सर्वेषु तत्र सन्धिसूत्रेषु तस्य अधिकारः भवति इति अस्ति समीचीनं भगिनि हा अस्तु धन्यवादः अस्तु अग्रे शुभ भगिनि अग्रे हा धन्यवादः भगिनि
आं महोदय तत्र उपरितने व्याख्याने
तत् कृतं भगिनि यद्यपि
यदि इदानीं यदि योगः अपि तत्र यदि योगः अपि इत्युक्ते इ अपि च इ इत्यस्य या यद्यपि अत्र इकारः इक् प्रत्याहारे अस्ति यकारः यण् प्रत्याहारे अस्ति सूत्रे इक् षष्ठीविभक्तौ अस्ति अतः तस्य स्थाने कार्यं भवति यण् प्रथमौ विभक्तौ अस्ति अतः सः यकारः आदेशरूपेण इकारस्य स्थाने आयाति अच् सप्तमी विभक्तौ अस्ति अतः अपि शब्दस्य अकारात् पूर्वं कार्यं भवति कार्यं किम् ई स्थाने य आदेशः सूत्रार्थः अवगतः खलु तर्हि तत्र इदानीम् इको इणचि इत्यस्य एकम् उदाहरणं दत्तं यदि योगः अपि इति पदद्वयस्य सन्धिं कर्तुम् इच्छामः चेत् इदानीं तत्र यदि तत्र वर्णयोः सन्धिः यदि इत्यस्य इकारः अन्तिमवर्णः अपि इत्यस्य आदिमवर्णः अकारः इदानीं यदि इत्यस्य इकारः अत्र इकारः इक् प्रत्याहारे अस्ति यतोहि तत्र सूत्रे उक्तम् इकः इकः इको एणचि इकः एण् इति इदानीम् इक् प्रत्याहारे अस्ति यकार तद् सः वर्णः अतः तत्र अग्रे किं पश्यामः परवर्णः न यकारः यण् प्रत्याहारे अस्ति अस्तु यण् इदानीम् इकः स्थाने यण् भवेत् इति सूत्रं वदति अपि च यकारः यण् प्रत्याहारे अस्ति तदपि इदानीं जानीमः सूत्रे इक् षष्ठीविभक्तौ अस्ति अतः तस्य स्थाने कार्यं भवति इक् इति तत्र प्रातिपदिकम् इक् इत्यस्य इकः इति षष्ठी भवति षष्ठी भवति इति कृत्वा स्थानी भवति स्थानी स्थानिनः कार्यं तत्र आदेशः स्थानी यत्र अस्ति तत्र भवति अतः तत्र अतः तस्य स्थाने कार्यं भवति यण् प्रथमविभक्तौ अस्ति अतः सः यकारः आदेशरूपेण इकारस्य स्थाने आयाति तत्र यण् इति आदेशरूपेण भवितव्यम् आदेशरूपेण कदा भवति इत्युक्ते प्रथमविभक्तौ एव भवेत् सः तत् पदं तदा एव आदेशरूपेण भवितुम् अर्हति अपि च तदपि ज्ञातवन्तः अच् सप्तमी विभक्तौ अस्ति अतः अपि शब्दस्य अकारात् पूर्वं कार्यं भवति इदानीं तत्र अचि इति अन्तिम पदं सूत्रे अचि इति सप्तमी विभक्त्याम् अस्ति यदा सप्तमी विभक्त्यां निमित्तं सूचितम् अस्ति तर्हि तत्र कार्यं पूर्वं भवति इति ज्ञातवन्तः इत्युक्ते तत्र अचि इति अच् प्रत्याहारस्थवर्णः इदानीं निमित्तं भवति तस्मात् पूर्वं कार्यं भवति यत्र अस्ति तस्मात् पूर्वं कार्यं भवति अस्माकं कृते अस्मिन् प्रसङ्गे इदानीम् इकार अकारयोः योगः अकारः अच् वर्णः अच् प्रत्याहारस्थवर्णः परम् अस्ति इदानीं यत्र अस्ति तस्मात् पूर्वं कार्यं भवति इत्युक्ते तस्मात् पूर्वम् इकारः अस्ति तस्य स्थाने इदानीं कार्यं भवेत्। तर्हि किम् अभवत् तत्र इकारस्थाने यकारः आदेशरूपेण आगच्छति। तत्र आदेशः इत्युक्ते पूर्वस्थितस्य वर्णस्य अपगमनम् इति। अतः इकारः अपगच्छति, यकारः आगच्छति। यद् यदि इत्यस्य यद्य इति भवति, यद्य योगः अपि यद्यपि इति अन्तिमरूपं निष्पद्यते तत्र।
समीचीनं, समीचीनं भगिनि। तर्हि तत्र कार्यम् अत्र इकारस्य स्थाने यकारस्य आदेशः इति कार्यं, तस्मात् तत्र परं तत्र अच् वर्णः वर्तते, अथवा अच् वर्णात् पूर्वं कार्यम् इकारस्य स्थाने यकारस्य आदेशः भवति इति। अस्तु, समीचीनं भगिनि। अतः तत्र इदानीं सूत्रस्य अर्थः अस्माभिः अवगतः, इको यणचि संहितायाम् इति पूर्णरीत्या तत्र षष्टिविभक्त्यन्तं सप्तमीविभक्त्यन्तं प्रथमाविभक्त्यन्तं संहितायाम् इति अनुवृत्तिसहितसूत्रम् अधिकारसूत्रम् एतत् सर्वम्। अतः तत्र एतादृशी तत्र रीतिः तत्र व्याकरणे भवति खलु, सूत्रस्य विवरणम्। अस्तु, धन्यवादः भगिनि। अस्तु, अग्रे नरेश महोदय अग्रे।
अग्रे पाणिनीयसूत्राणि षड्विधानि, संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशो अधिकारश्च षड्विधं सूत्रलक्षणम्। अत्र दत्तमस्ति पाणिनीयसूत्राणि षड्विधानि सन्ति, तस्य तेषु किं संज्ञा अस्ति, परिभाषा अस्ति, विधिः अस्ति, नियमः अस्ति, अतिदेशः अस्ति, अपि च अधिकारसूत्रम् अस्ति। अग्रे तस्य विवरणं दत्तमस्ति। संज्ञासूत्रम्, संज्ञासूत्रं येन नामकरणं क्रियते सुप्तिङन्तं पदम्। अत्र संज्ञासूत्रम् अस्ति यत्र तस्य नामकरणं भवति। अत्र उदाहरणमस्ति सुप्तिङन्तं पदम्। पदं किम् अस्ति, तस्य नामकरणम् अस्ति। पदं किम् अस्ति, पदं सुपन्तम् अस्ति, अपि च तिङन्तम् अस्ति, तत् पदं भवति। अग्रे परिभाषासूत्रमस्ति। परिभाषासूत्रं किमस्ति, यत्र नियमः नास्ति एतादृशां सूत्रम् आगत्य नियमयति। यत्र नियमः नास्ति तत्र परिभाषासूत्रं नियमं ददाति,
वदति एतदेव भवेत्, एतद् न भवेत् इति नियमान् करोति।
अत्र उदाहरणमस्ति स्थाने अन्तरम्, अन्तरतम।
इदानीं तस्य सूत्रस्य अर्थः तत्र न जान अर्थः कः इति न जानामि। अतः तत्र अस्तु, तस्मिन् सन्दर्भे तत्र किं किं भवति इति तत्र एतत् सूत्रं वदति। अतः तत्र परिभाषासूत्रम् इति एकविधम् अस्ति। अस्तु,
नियमः अस्ति। अत्र अग्रे विधिसूत्रम् अस्ति। विधिसूत्रं ददाति यत् कार्यं करणीयं, यथा इको यनचि अस्ति, तत्र एकस्थाने यन् आदेशः भवति अचि परे, तत् कार्यमस्ति, तत् विधिसूत्रस्य आयाति। नियमसूत्रं, येन पूर्वात् विद्यमानः नियमः सीमितो भवेत्। येन पूर्वात् विद्यमानः नियमः सीमितो भवेत् यत्र पूर्व गिव दत्तं सूत्रं
नाम तत्र परिभाषासूत्रमस्ति परिभाषासूत्रेण नियमः आगच्छति किन्तु तस्य नियमस्य सीमां
सीमितस्य
तत्र हा तस्य एतस्य सूत्रस्य सूत्रेण नियमः भवति तस्य नियमः कुत्र कुत्र तस्य अधिकारः तस्य कार्यं तस्य प्रभावः कुत्र कुत्र वर्तते इति विषये सीमां रचयति नियमसूत्रम्
अतिदेशसूत्रं येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तेत या अत्र कुत्रचित् यदा परिवर्तनं भवति तत् अस्ति यदा उदाहरणमस्ति तत् अतिदेशः अस्ति उदाहरणम् अस्ति सार्वधातुकम् अपित् इति सूत्रेण यः नित् अस्ति सः
नित् नास्ति
नित् नास्ति सः नित्वत् स्यात्
अतः तत्र अतिदेशसूत्रं नाम तस्य स्वभाव तत्र शब्दः अथवा स्वरूपस्य वा स्वभावः स्वभावस्य परिवर्तनं नाम एतद् नास्ति किन्तु सूत्रेण तद्वत् भवति इति तत्र अतः अतिदेशसूत्रमपि एकविधम् अस्ति अन्तिमम्
अधिकारसूत्रं यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु अनुवृत्ति सामान्यतया तु एकसूत्र भवति परन्तु अधिकारसूत्रम् अस्ति यस्य अनुवृत्तिः बहुषु सूत्रेषु भवति यथा उदाहरणमस्ति संहितायां
यथा संहितायाम् इति अस्ति समीचीनम् अतः तत्र षड्विधानि भवन्ति तत्र पाणिनीयसूत्राणि संज्ञाकार्यं नाम नामकरणं परिभाषासूत्रं नियमः विधिसूत्रं साक्षात् कार्यं कथं भवति इति नियमसूत्रं तस्य परिभाषासूत्रस्य नियमनम् अतिदेशसूत्रं नाम तत्र नियमः अस्ति किन्तु अतिदेशसूत्रेण नियमस्य उल्लङ्घः भवितुम् अर्हति नाम स्वरूपस्य परिवर्तनम् अपि अधिकारसूत्रं यत्र यस्य अनुवृत्तिः बहुषु सूत्रेषु भवति इति अस्ति अतः इदानीं तत्र परिशिष्टं यदस्ति तद् त्यजामः इदानीं तत्र अग्रे तत्र निमित्तम् इति यदस्ति तत् प्रायशः यदि पठामः लाभः भवति इति मन्ये तदनन्तरं तत्र साक्षात् स्वरसन्धिः इति तद् पठितुं शक्नुमः तत्र इत्संज्ञक इति इत्संज्ञाप्रकरणं तद् बहु दीर्घम् अस्ति अपि तत्र तस्य पठनस्य यदि पठितुम् इच्छामः तत्र बहु किमपि अपेक्षितम् अस्ति इति मन्ये अतः तत्र इदानीं तत्र तद् मास्तु केवलं तत्र निमित्तम् इति यदस्ति तत् पठामः तत्र पाणिनीयं सूत्रं कथं पठनीयम् इति यदस्ति तदनन्तरं निमित्तम् इति अस्ति तद् इदानीं पठामः अस्तु धन्यवादः महोदय इदानीम् अग्रे तर्हि तत्र पल्लवी भगिनी अग्रे पठति वा
आं महोदय महोदय तत्पूर्वं क्षम्यतां तर्हि तत् संज्ञासूत्रं यत् दत्तमस्ति उदाहरणं सुप्तिङ्गन्तं पदम् अत्र समासः विद्यते सुप्तिङ्गौ अन्तौ यस्य बहुव्रीहिसमासः
समीचीनं
समासानां विग्रहवाक्यमिति अस्ति
सत्यं भगिनि उत्तमं समीचीनं भगिनि सत्यं उत्तममस्ति भगिनि, समीचीनं. हा, सुप्तिङ्गन्तम् इति मध्ये समासः अस्ति, सत्यं. धन्यवादः भगिनि, समीचीनमस्ति. हा,
निमित्तं, निमित्तमिति विषये कश्चन विचारः. अनेन पाणिनीयसूत्रसन्दर्भे विभक्तीनाम् अर्थः पुनः इतोपि
कुत्र अस्ति महोदय निमित्तमिति?
तत्र पूर्वम् आगच्छतु भगिनि, नाम तत्र मूल अस्माकं मूलयन्त्राणि इति.
ओ, तत्र
हा लिङ्क्.
अच्छा, अस्तु.
हा, तत्र तृतीयम् अस्ति, टु ए, टु ए इति अस्ति निमित्तं.
करपत्रं टु सन्धि तदेव वा?
तत्र यत् अस्माकं मूलयन्त्राणि इति अस्ति खलु, तत्र पाणिनीयं, पाणिनीयं सूत्रं कथं पठनीयम् इति टु इति अस्ति.
आम् आम् आम्, तत्र
टु ए अस्ति निमित्तम्.
ओ, अस्तु अस्तु, गाट् इट्, थेङ्क् यु, धन्यवादः महोदय.
यदा वदामः यत् सूत्रे किञ्चन पदं, कश्चन वर्णः, कश्चन प्रत्याहारः, प्रथम सप्तमी विभक्तौ अस्ति, तदा पूर्वकार्यम् इति उच्यते. नाम यत् पदं सप्तमी विभक्तौ तत् परम् अनन्तरम् अस्ति, अपि च तत् कार्यस्य निमित्तं करणं कारणं क्षम्यतां निमित्तस्य अभावे कार्यं न भविष्यति. उदाहरणं प्रथमम्
अहं
अचि, अचि सप्तमी विभक्तौ, अच् वर्णः परं कार्यं पूर्वं. कश्चन अच् वर्णः परं नास्ति चेत् कार्यं न भविष्यति. यदा सूत्रे सप्तमी विभक्ति अन्तं पदमस्ति तर्हि तत् सूचयति कार्यं कुत्र करणीयं, तर्हि सप्तमी विभक्त्यन्तं यत् पदमस्ति तस्य पूर्वमेव करणीयं. तद् निमित्तमपि भवति, यदि सप्तमी विभक्त्यन्तं पदमस्ति तदा एव कार्यं करणीयम्.
नाम सप्तमी विभक्त्यन्तपदं सूचयति किं कारणं भवेत्, नाम तत्र अच्छिति अच्छिति भवेत्, अच्छिति नास्ति चेत् कार्यं न भवति,
न
करणीयम् इति. अतः हा, तर्हि तत्र निमित्तं भवति, नाम तत्र तत् कार्यस्य निमित्तं, नाम कारणं, हेतुः. कारणस्य अभावे कार्यं न भवति खलु,
न करणीयं. यदि अच् नास्ति परं तर्हि यण् न भवति इकः स्थाने इति, इको
इति कार्यं न भवति. तद् न भवति, इकारः इकारः एव तिष्ठति. केवलं यदि अच् अग्रे अस्ति चेदेव तत्र कार्यं भवति, नो चेत् न भवति.
अतः अच् इति निमित्तमस्ति. यदि अधिक अपि, यद्यपि, अत्र अपि इत्यस्य अकारः परं नास्ति चेत् इकारस्य स्थाने यकारः भविष्यति किं? नैव. अतः सः अकारः कार्यस्य निमित्तं. कार्यात् परम् अच् वर्णः नास्ति चेत् कार्यम् इकारस्य यकारः न भवति. इदानीमेव अच् अस्ति चेदेव कार्यं करणीयम्, अन्यथा न. यदि अत्र केवलं यदि इति पदम् अस्ति चेत् इकारस्य यकार इति कार्यं भवति वा? न भवति किल. निमित्तस्य अभावे यदि यथावत् तिष्ठति, अच् वर्णः अस्ति तथा तदा एव वयम् इकस्थाने यण् करणीयम्. अच् वर्णः नास्ति तर्हि इकार तथैव तिष्ठति.
अतः तत्र सप्तमविभक्तेः तत्र विभक्त्यन्तपदस्य कार्यद्वयमस्ति, एकमस्ति कार्यं कुत्र अस्ति इति सूचयति खलु, तद् नाम सप्तमविभक्त्यन्तपदं पूर्वकार्यमस्ति, नाम तस्मात् परं तत्र तद् पूर्वकार्यं, नाम तस्मात् पूर्वं कार्यमस्ति, अपि तत् साक्षात् अच् इति कार्यस्य अनन्तरम् अस्ति अच्वर्णः इति एकम्. अन्यत् अस्ति कारणमस्ति, कार्यं प्रति कारणमस्ति. यदि अच्वर्णः नास्ति चेत् तत्र आदेशः अस्मिन् स्थाने कार्यमस्ति आदेशः आदेशः न भवति एव अतः सप्तमीविभक्त्यन्तपदम् अस्ति चेत् एकमस्ति पूर्वकार्यम् अन्यत् अस्ति निमित्तम् अतः तत्र तस्य पात्रद्वयमस्ति कार्ये कारणम् अस्ति अपि कार्यं कार्यात् अनन्तरम् अस्ति इति निमित्तमस्ति कार्यात् अनन्तरम् अस्ति अस्तु समीचीनं भगिनि हा अस्तु अग्रे धन्यवादः अग्रे तत्र हा निवेदिता भगिनि अग्रे
द्वितीयः पञ्चमी विभक्तौ अस्ति तदा परकार्यम् इति उच्यते नाम यत् पदं पञ्चमी विभक्तौ तत् पूर्वम् अस्ति अपि च तत् कार्यस्य निमित्तं कारणं निमित्तस्य अभावे कार्यं न भविष्यति रषाभ्यां नोणः समानपदे एकस्मिन् पदे पूर्वं रेफः अथवा शकारः अस्ति चेत् अपि च तस्मिन् एव पदे परं नकारः अस्ति चेत् तर्हि नकारस्य स्थाने नकारादेशः भवति रः च शः च रषौ इतरेतरद्वन्द्वसमासः ताभ्यां रषाभ्यां रषाभ्यां पञ्चम्यन्तं न षष्ठ्यन्तं नः प्रथमान्तं राम अधिक इन रामेण रषाभ्यां नोणः समानपदे रामेण अत्र रामस्य रेफः पूर्वं नास्ति चेत् नकारस्य स्थाने नकारादेशः भविष्यति किं नैव अतः सः रेफः कार्यस्य निमित्तं कार्यात् पूर्वं रेफः शकारः च नास्ति चेत् कार्यं न भवति नकारस्य स्थाने नकारः न आगमिष्यति देव अधिक इन् देवेन अत्र देवशब्दे रेफः नास्ति अस्यां दशायां नकारस्य स्थाने नकारः भवति वा न भवति किल निमित्तस्य अभावे देवेन यथावत् तिष्ठति
तर्हि किञ्चित् वदतु
पञ्चमी विभक्तौ अस्ति तदा परकार्यम् इति उच्यते परकार्यं नाम यत् पदं पञ्चमी विभक्तौ तत्पूर्वम् अस्ति अपि च तत् कार्यस्य निमित्तं कारणं निमित्तस्य अभावे अत्र उदाहरणमस्ति रषाभ्यां नोणः समानपदे यदि पदे रकार रेफ् या वा शकारः अस्ति तदा नकारस्य णकारः भवति इति नियमः अस्ति
तत्र कार्यं किम् अस्ति आदेशः वा आगमः वा अथवा लोपः वा कार्यं किम् अस्ति अत्र
आदेशः अस्ति खलु
णकारस्य आदेशः इति कार्यम् इदानीं तत्र पञ्चमीविभक्त्या सूचितं पदं तत्र पञ्चमीविभक्ति इत्युक्ते परकार्यम् अतः तत्र पञ्चमीविभक्तिपदम् अत्र रषाभ्याम् इति पञ्चमीविभक्त्यन्तपदं तर्हि रेपः कार्यस्य अनन्तरं रेपः अस्ति वा अथवा कार्यात् पूर्वं रेपः अस्ति वा
कार्यात् पूर्वमस्ति
अतः एव परकार्यम् इति उच्यते नाम यस्य अनन्तरं कार्यम् अस्ति परकार्यम् इत्युक्ते कार्यं तस्य अनन्तरम् अस्ति तस्य परमस्ति परकार्यम् अतः परकार्यं यतोहि अस्य अनन्तरं कार्यम् अस्ति अतः एतत् परकार्यम् इति उच्यते नाम एतत् पूर्वमस्ति तदनन्तरं कार्यमस्ति अतः अत्र रेपः प्रथमतया आगच्छति तदनन्तरमेव आदेशः भवति खलु नकारस्य स्थाने णकारः अतः कार्यम् अनन्तरं प्रथमं रेपः अतः एव तत्र पञ्चमीविभक्तिः
शकारः
वा समीचीनं अतः तत्र एकमस्ति तत्र पञ्चमीभक्तिपदस्य एकमस्ति परकार्यम् इति जानीमः, अन्यत् अस्ति निमित्तम्, एतत् कारणमस्ति. यदि रेपः नास्ति चेत् अथवा शकारः नास्ति चेत्
नकारः भवति, नकार एव
तिष्ठति, अत्र कार्यं न सम्भवति. अतः कारणमस्ति चेदेव कार्यं भवति. अतः अत्र पञ्चमी विभक्त्यन्तपदं कारणं सूचयति, अपि कारणं कुत्र अस्ति इति अपि सूचयति. कारणं कार्यात् पूर्वं भवेत् इति नियमः अस्ति. अत्र तादृशनियमः नाम पूर्वम् अस्ति, रेपः प्रथमतया अस्ति, तदनन्तरं कार्यम् अस्ति. समीचीनं भगिनि, अस्तु.
समानपदे समानपदे इति पदस्य अर्थं किम् अस्ति? समानपदे
नाम तत्र यदि पदद्वयमस्ति, तत्र रामः रामस्य पठनम् इति अस्ति चेत् तत्र पठनम् इति तस्य नकारः, तस्य परिवर्तनं न भवति खलु, पठनम् इति न वदामः खलु. अतः एकस्मिन्नेव पदे तत्र रेपः अपि भवेत्, तदनन्तरं नकारः अपि भवेत्, अतः समानपदे. केवलम् अनन्तरम् इत्युक्ते वाक्ये अनन्तरम् इति न, समानपदे अनन्तरं भवेत्. नाम तत्र पदद्वयं स्वीकृत्य इति तादृशः नास्ति, तत्र समानपदे. तत्र यद्यपि इति तत्र पदद्वयस्य मेलनेन तत्र यकारस्य आदेशः भवति खलु इकारस्य स्थाने, हा तादृशी स्थितिः अत्र न भवति. समीचीनं वा? नाम तत्र
संधि में जैसे हम देखते हैं कि पहले पूर्व पद का अंतिम वर्ण और दूसरे पद का पहला वर्ण इकट्ठा होकर संधि बनती है, ऐसे वहां यहाँ नहीं होता है, ऐसे उन्हें कहना है.
अत्र एकस्मिन् पदे संधि कार्यम् केवलं पदद्वयस्य योजनेन अपि तत्रापि संधि कार्यं भवितुम् अर्हति. एकस्मिन् एव पदे निर्माण समये अपि तत्र संधि कार्यं भवति. यथा तत्र जानीमः उपसर्गं यदि योजयामः तत्र सन्धिकार्यं भवति खलु. अभियोगः आगच्छति, अभ्युदयः इति तत्र, अतः तत्र एकमेव पदम् अस्ति, किन्तु तत्र सन्धिकार्यं यथा भवति तादृशी स्थितिः यत्र अस्ति चेत् तदा एव तत्र नकारस्य नकारः भवति. किन्तु पदद्वयं स्वीकृत्य तत्र एतस्य सूत्रस्य प्रयोगः तत्र न भवति, यत्र पदद्वयम् अतः समानपदे इति उक्तं.
धन्यवादः.
समीचीनम्, अस्तु भगिनि. अस्तु अग्रे इदानीं तत्र सुजाता भगिनी अग्रे.
आं महोदय, अट्कुपुवानुम् एवायेपि इत्यनेन रेपनकारयोः मध्ये स्वराः सन्ति चेदपि नत्वं भवति. अट्प्रत्याहारे ये वर्णाः कवर्गीयाः वर्णाः पवर्गीयाः वर्णाः आ इति उपसर्गः अनुस्वारः नकारयोः मध्ये एते सन्ति चेदपि नत्वं भवति.
एतत् केवलं स्पष्टीकरणार्थं, नाम तत्र स्टार् इति दत्तमस्ति खलु, रसाभ्यः समानपदे इति केवलं फुट्नोट् रूपेण तत्र, हा एतत् कार्यं नत्वं, यद्यपि मध्ये अन्ये वर्णाः सन्ति
तदपि भवति
तदापि नत्वं भवति. नाम यदि साक्षात् रेपः अस्ति तदनन्तरं नकारः अस्ति तदा तु भवति एव, किन्तु मध्ये यदि अन्ये स्वराः अस्ति चेदपि तत्र
नत्वं भवति
इति अस्ति. अस्तु अग्रे.
तृतीया विभक्तौ अस्ति तदा योगः इत्युच्यते. योगः इत्युक्ते सम्बन्धः. सम्बन्धः इत्यनेन निमित्तं पूर्वमपि भवितुमर्हति, परमपि भवितुमर्हति. अतः सप्तमी पञ्चमी इत्यनयो अनयोः मेलनम् इति चिन्त्यताम् नाम पूर्वकर्मपि अर्हति, परकर्मपि अर्हति. तृतीया विभक्ति अस्ति चेत् सम्बन्धः इति अर्थः सम्बन्धः इत्यनेन निमित्तं पूर्वमपि भवितुमर्हति, परमपि भवितुमर्हति. सप्तमी पञ्चमी इत्यनयोः मेलनम् इति चिन्त्यताम्. सप्तमी विभक्ति अस्ति चेत् पूर्वकार्यं भवति, पञ्चमी परकार्यं भवति.
तृतीयविभक्ति अस्ति चेत् परकार्यमपि भवितुमर्हति, पूर्वकार्यमपि भवितुमर्हति. अत्र केवलं तत्र पञ्चमी अस्ति चेत् किं भवति?
परकार्यं भवति.
परकार्यं भवति, निमित्तं भवति.
निमित्तं भवति.
सप्तमीभक्तिः अस्ति चेत् निमित्तं भवति, पूर्वकार्यं भवति. किन्तु तृतीया अस्ति चेत् निमित्तम् अस्ति. पूर्वम् अपि भवितुमर्हति, पूर्वकार्यं परकार्यं द्वयमपि भवितुमर्हति, किन्तु निमित्तम् अस्ति. अतः सप्तमी पञ्चमी इत्यनयोः मेलनम् इति चिन्तयितुं शक्नुमः. अग्रे
यत् पदं तृतीया विभक्तौ तत् कार्यस्य निमित्तम् इत्युक्तौ कार्यस्य कारणं, तस्य अभावे कार्यं न भवति. तृतीया विभक्ति अस्ति चेत् तत् कार्यस्य निमित्तम् इति.
निमित्तम् इत्युक्ते किं?
निमित्तम् इत्युक्ते
कारणं
भवति. तत्र
तृतीयविभक्ति सूत्रे तृतीयविभक्तन्तपदम् अस्ति चेत् सूचयति, किन्तु कार्यं कदा भवति?
पूर्वं भवितुमर्हति, परमपि भवितुम्
सत्यं, किन्तु कारणम् अस्ति चेदेव कार्यं भवति खलु.
अतः
तृतीयाविभक्त्यन्तपदं यदस्ति तेन सूचिताः वर्णाः तत्र यत्र भवेयुः तत्र भवन्ति चेदेव कार्यं भवति, कार्यं न भवति. अस्तु, अग्रे उदाहरणं पठित्वा किञ्चित् वदतु.
सकारवर्गयोः चकारचवर्गभ्यां योगे चकारचवर्गो योगः सम्बन्धः. इच्छनेन निमित्तं चकारः चवर्गः च पूर्वम् अपि भवितुमर्हति, परमपि भवितुमर्हति. स्तोः षष्ट्यं चुना तृतीयान्तं चुः प्रथमान्तम् सकारतवर्गयोः मेलनेन निमित्तमस्ति चकार चकारचवर्गयोगे चकारचवर्गस्थः. सकारचवर्गस्थाने
भगिनी तत्र सम्यक्तया न श्रूयते. अस्तु अस्तु, अन्य कोऽपि वदेत्. हा
धन्यवादः
भगिनी. हा अस्तु अस्तु, धन्यवादः भगिनी. अस्तु अग्रे तत्र हा शुभ भगिनी अग्रे वदति वा.
आं महोदय. स्तोश्चुनाश्चुः सकारतवर्गयोः षकारचवर्गाभ्यां योगे षकारचवर्गौ स्तः योगः सम्बन्धः, इत्युक्ते योगः इत्युक्ते सम्बन्धः इत्यनेन निमित्तं षकारः चवर्गः च पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति. स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तम्. इदानीं तत्र स्तोः श्चुनाश्चुः इति सूत्रस्य विवरणं. सकार तवर्गयोः इत्युक्ते सकार अपि च तवर्गे ये वर्णाः सन्ति ते तेषां योगे
वर्गयोः इति तत्र विभक्ति का भगिनि?
द्वितीया भवति तत्र महोदय. तवर्गः सकारः अपि तवर्गः
न तत्र वचनं तु द्विवचनं किन्तु वर्गयोः इति.
ओ तत्र वर्गयोः षष्टि भवति.
षष्टि इत्युक्ते स्थाने खलु.
स्थाने तत्र स्तोः इति षष्टि भवति.
अतः एव तत्र वर्गयोः
सकार तुः इति तवर्गः.
तस्य तयोः स्थाने
षकार चवर्गाभ्यां योगे.
इदानीं तत्र वर्गाभ्याम् इति अस्ति तत्र पुनः द्विवचनं किन्तु द्विवचनं भ्याम् अस्ति चेत् तत्र वयं जानीमः तृतीया चतुर्थी पञ्चमी भवितुम् अर्हति खलु.
तत्र इदानीं तत्र तृतीया एव, यतोहि सूत्रे चुना इति दत्तं, तृतीया अस्ति. चुना इत्युक्ते षकारः अपि च चवर्गीयव्यञ्जनानि
इति षकार चवर्गाभ्याम् इति तृतीया द्विवचनं प्रयुक्तमस्ति. समीचीनं.
योगे
षकार
चवर्गौ स्तः इत्युक्ते तत्र स्तोः सकारतवर्गयोः श्चुना षकारचवर्गाभ्यां योगे श्चुः षकारचवर्गौ स्तः. श्चुः इति इदानीं श्चुः इति तत्र आदेशः भवति षकार अथवा
षष्ट्यन्तपदं सूत्रे अस्ति इति कृत्वा आदेशः एषः
आदेशः स्तोः इति अस्ति अतः श्चुः इति आदेशः भवति.
अतः षकार चवर्गौ
चवर्गौ
प्रथमाविभक्त्यन्तपदं तत्र श्चुः इति तेन इङ्कितं पदं षकार चवर्गौ इति अतः तत्र आदेशः इति भवति. समीचीनं. अग्रे योगः
इत्युक्ते तत्र सम्बन्धः इति ज्ञातवन्तः. इत्यनेन निमित्तं इत्युक्ते अस्मिन् प्रसङ्गे षकारः चवर्गः च निमित्तं भवति. पूर्वमपि भवितुम् अर्हति परमपि भवितुम् अर्हति.
तदा एव कार्यं भवति. अतः पूर्वं वा परं वा
परं वा
षकारः अथवा चवर्गः
चवर्गीयव्यञ्जनं भवति चेत् निमित्तम् अस्ति किन्तु पूर्वं वा परं वा भवितुम् अर्हति. कार्यं यथावत् भवति. अपि च स्तोः षष्ठ्यन्तं श्चुना इदानीं स्तोः इति षष्ठ्यन्तं स्थानी भवति, तस्य स्थाने आदेशः भवति. श्चुना तृतीयान्तं तदेव तत्र तृतीयान्तम् इति सूत्रे उक्तम् अस्ति इति कृत्वा निमित्तं पूर्वं वा परं वा भवति भवितुम् अर्हति. श्चुः इति प्रथमान्तम् अतः सः श्चुः इत्यस्य वर्णः आदेशरूपेण सकारचवर्ग योः स्थाने आदेशरूपेण भवति आगच्छति.
षकारः तवर्गस्थानयोः तवर्गयोः स्थाने
आदेशरूपेण
चकारः वा आगच्छति. समीचीनं.
सकारस्य षकारः आदेशः तवर्गीयवर्णानां चवर्गीयवर्णानाम् आदेशः भवति
आदेशः इति भवति. अपि यदि केवलं तत्र यदि अभ्यासार्थं यदि वयं वक्तुम् इच्छामः तत्र तृतीया इत्युक्ते सप्तमी अपि पञ्चमी अपि इति यदि वक्तुम् इच्छामः तर्हि तत्र नाम स्तोः स्तुनाश्चुः इति सूत्रम् एकमेव सूत्रं किन्तु यदि तत्र तृतीया विभक्ति इत्युक्ते सप्तमी अपि पञ्चमी तर्हि तत्र एतस्य सूत्रस्य स्थाने सूत्रद्वयं भवति नाम स्तोः स्तुनी स्तुः इति खलु यत्र सप्तमी स्तुनी इत्युक्ते सप्तमी खलु
यतोहि स्तुः इति प्रथमा अस्ति गुरुः वत्
स्तुना स्तुना इति तत्र स्तुना इति गुरुणा इति
श्चौ इति भवति वा महोदय गुरौ इति श्चौ इति भवति वा
स्तुनि इति न क्षम्यतां भगिनि सत्यं सत्यं तत्र श्चौ इति खलु गुरौ गुरौ हा श्चौ सत्यं सत्यं भगिनि श्चौ अपि पञ्चमी पुनः तत्र
गुरोः
इति
गुरोः
गुरोः
श्चोः इति प्रायशः
तर्हि स्तोः स्तोः
स्तुः
स्तुः केवलं नाम तत्र यदि एतादृशम् आसीत् तत्र क्लिष्टकरं भवति अतः तत्र पूर्वं वा परं वा इति तद् बहुवारं किमर्थं वदामः तद् त्यक्त्वा तृतीया विभक्तिं स्वीकृत्य वदामः तर्हि स्तुना इत्युक्ते पूर्वकार्यं वा परकार्यं वा किन्तु निमित्तम् इति सारल्यं भवति खलु तत्र
आम् आम्
अतः तृतीया अस्ति चेत् पूर्वकार्यं परकार्यं द्वयमपि भवितुम् अर्हति अस्तु समीचीनं भगिनि अस्तु अत्र किञ्चिदेव अस्ति तदनन्तरम् अग्रिमे वर्गे पूरयामः तदनन्तरं तत्र स्वरसन्धिः इति यत्र अस्ति तत्र गच्छामः तर्हि अस्तु समीचीनं धन्यवादः भगिनि अस्तु तत्र तर्हि तत्र सुजाता भगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि
आं महोदय श्रूयते वा महोदय
श्रूयते भगिनि इदानीं श्रूयते
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ नमः हरिः ॐ धन्यवादः महोदय
धन्यवादः भगिनि धन्यवादः
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 नमस्कारः महोदय
धन्यवादः
धन्यवादः धन्यवादः